इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। आदौ मुख्य वार्ताः। प्रधानमन्त्री कथितवान् यत् सर्वेषां राज्यानां संयुक्त प्रयासेन सप्तचत्वारिंशदुत्तर द्विसहस्रतम परं विकसित भारतम् इति स्वप्नं पूरयितुं शक्यते। श्रीमोदिना अद्य नवदिल्ल्यां नीत्यायोगस्य नवम प्रशासकीय परिषद उपवेशनस्य अध्यक्षता विहिता। प्रधानमन्त्रिणा नरेन्द्रमोदिना श्वः पूर्वाह्णे एकादशवादने स्वीय मन की बात इति कार्यक्रमे देशवासिभिः साकं विचार विनिमयः करिष्यति। विदेशमन्त्री डॉ एस जयशंकरः प्रत्यपादयत् यत् भारतम् एक्ट ईस्ट इत्याख्यायाः नीतेः माध्यमेन आसियान इत्यस्य ऐक्यभावं केन्द्रीकरणञ्च यथावदेव स्थापयति। अपि च त्रयाणां स्पर्धानां श्रृंखलायाः 20-20 अन्ताराष्ट्रिय पुरुष क्रिकेट प्रतिस्पर्धायाम् अद्य सायं पल्लेकेले इत्यत्र भारतीय दलं श्रीलंका दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् सप्तचत्वारिंशदुत्तर द्विसहस्रतम परं विकसित भारतं सर्वेभ्यः जनेभ्यः महत्वाकांक्षा वर्तते। अद्य नीत्यायोगस्य नवम प्रशासकीय परिषदः उपवेशनं सम्बोधयन् श्रीमोदी उक्तवान् यत् राज्यं लक्ष्यमिदं प्राप्तौ उत्कृष्ट भूमिकां निभालयितुं शक्नोति। प्रधानमन्त्रिणा उक्तं यत् भारतम् एतेषाम् अवसराणां लाभं गृह्णीयात् तथा अन्ताराष्ट्रिय निवेशानुकूलं नीतिनां निर्माणं कुर्यात्। तेनोक्तं यत् भारताय विकसित राष्ट्र निर्माण दिशि अयं प्रगतिमार्गः वर्तते। प्रधानमन्त्री कथितवान् यत् सर्वेषां राज्यानां संयुक्त प्रयासेन सप्तचत्वारिंशदुत्तर द्विसहस्रतम परं विकसित भारतम् इति स्वप्नं पूरयितुं शक्यते। तेनोदीरितं यत् विकसित राज्यानि मिलित्वा विकसित भारतं निर्मास्यन्ति। श्रीमोदी उक्तवान् यत् भारतं यूनां राष्ट्रं वर्तते अथ स्वकार्यबलस्य कारणेन विश्वस्मिन् बृहदाकर्षणमपि। तेनग्रे कथितं यत् सप्तचत्वारिंशदुत्तर द्विसहस्रतम वर्षं यावत् विकसित भारतं निर्मातुं कौशलानुसन्धान नवाचार वृत्त्याधारितेषु विषयेषु बलं प्रदातव्यम्। नीत्यायोगस्य प्रशासकीय परिषद उपवेशनमिदं राष्ट्रपति भवनस्य सांस्कृतिक केन्द्रे संजातम्। प्रधानमन्त्री नरेन्द्रमोदी श्वः पूर्वाह्णे एकादशवादने स्वीय मन की बात इति कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं 12-शततमं संस्करणं भविता। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शनं प्रधानमन्त्री कार्यालयः सूचना प्रसारण मन्त्रालयः इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते इति प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षणम् अयं कार्यक्रमम् क्षेत्रीयभाषाष्वपि श्रोतुं शक्यते। क्षेत्रीयभाषासु अस्य पुनः प्रसारणं रात्रौ 8 भविता। विदेशमन्त्री डॉ एस जयशंकरः प्रत्यपादयत् यत् भारतम् एक्ट ईस्ट इत्याख्यायाः नीतेः माध्यमेन आसियान इत्यस्य ऐक्यभावं केन्द्रीकरणञ्च यथावदेव स्थापयति। अद्य वियनिटियान स्थले 14 पूर्वीयैशिया शिखर सम्मेलनस्य विदेशमन्त्रिणामुपवेशनं सम्बोधयन् असौ कथितवान् यत् अनया एक्ट ईस्ट नीतिः 10 सम्पूरितानि। भारतीय जनता पार्टी इति दलस्य शासित राज्यानां मुख्यमन्त्रिणां मन्त्रणा अद्य सायं नवदिल्ल्यां समनुष्ठीयते। अस्य दलस्य मुख्यालये समायोक्ष्यमाणे एतस्मिन् उपवेशने दलस्य वरिष्ठ नेतारः अपि सम्मिलिताः भविष्यन्ति। लोकसभा निर्वाचनस्य केन्द्रीय वित्त संकल्पना सत्रस्य च प्रस्तुतानन्तरम् एतस्मिन् उच्चस्तरीयोपवेशने प्रशासकीय योजनानां प्रभावी कार्यान्वयने अन्येषु च विषयेषु चर्चा सम्भाविता वर्तते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने सार्धैकवादनतः भविष्यति। कृपया श्रृण्वन्तु। प्रधानमन्त्री अद्य केन्द्रीय सशस्त्रारक्षी बलस्य स्थापना दिवसावसरे तेभ्यः सैनिकेभ्यः शुभकामनाः प्रदत्तवान्। सामाजिक संचार पटले एकस्मिन् संदेशे प्रधानमन्त्रिणा मोदिना उक्तं यत् केन्द्रीय सशस्त्रारक्षिबलस्य राष्ट्रं प्रति समर्पणं प्रशंसनीयं वर्तते। गृहमन्त्रिणा अमितशाहेनापि केन्द्रीय सशस्त्रारक्षिबलस्य प्रयासानां प्रशंसा कृता। सहैव तेषां सैनिकानां कुटुम्ब सदस्येभ्यः अपि शुभकामनाः प्रदत्ताः। विदेशमन्त्री डॉ एस जयशंकरः अद्य लाओ पीडीआर इत्यत्र लाओस देशस्य उपप्रधानमन्त्रिणा विदेशमन्त्रिणा च सेल्युक्साई कोमसेत इत्यमुना सार्धं मेलनं कृतवान्। सामाजिक संचार पटले डॉ जयशंकरः व्यलिखत् यत् असौ मेकोंग गंगा सहयोगान्तर्गतं लाओस देशाय दश परियोजनाभ्यः सहभागिता ज्ञापन पत्राणाम् आदान प्रदानं कृतवान्। अत्रावसरे विशिष्टमेकं प्रैष्य पत्रमपि प्रसारितम्। विदेशमन्त्री वियनिटियान इत्यत्र आसियान उपवेशनावसरे तुर्की देशीयेन विदेशमन्त्रिणा हाकम फदान इत्यनेन सहापि चर्चां कृतवान्। अल्पसंख्यक कार्य मन्त्रालयस्य नवदिल्ल्याः दिल्ली हाट इत्यत्र प्रचल्यमाने लोक संवर्धन पर्व इत्याख्ये कार्यक्रमे मन्त्रालयस्य योजनाः कार्यक्रमाः उपलब्धयश्च प्रदर्शिताः। षोडश दिवसीयः अयमुत्सवः केन्द्र प्रशासनस्य शतदिवसीय कार्ययोजनायाः भागो विद्यते। यः मन्त्रालयस्य विविध कार्यक्रमाणामन्तर्गतं सफलतायाः कथाभिः सह सम्पूर्ण राष्ट्रस्य उत्पादानां कलानां समृद्ध संस्कृति न्यासानां संवर्धनमिति। राष्ट्रमद्य पूर्वराष्ट्रपतेः प्रसिद्ध वैज्ञानिकस्य च डॉ एपीजे अब्दुल कलाम वर्यस्य नवम्यां पुण्यतिथौ तस्मै श्रद्धांजलिः समर्पयति। डॉ कलाम वर्यः भारतस्य अंतरिक्ष प्रक्षेपास्त्र योजनासु महत्वपूर्ण भूमिकां निभालितवान्। तस्मै मिसाइल मैन ऑफ इंडिया उपाधिरपि प्रदत्ता। केन्द्रीय गृहमन्त्री अमितशाहः सामाजिक सन्देश संचार पटले अलिखत् यत् डॉ कलाम वर्यस्य जीवनं सुदृढ परिश्रमस्य साधारणस्य संवेदशीलनस्य च मिश्रणमासीत् येन राष्ट्रस्य युवानः प्रेरितः अभवन्। भारतर्तु विभागेन अनुमानितं यत् आगामि द्विदिवसावधौ मध्यभारते प्रचण्ड वृष्टिः भविष्यति। उत्तराखण्ड गुजरात पूर्वी राजस्थान केरल मध्यप्रदेश छत्तीसगढ़ विदर्भेषु अद्य अतिवृष्टि भविष्यति इति आशास्यते। केन्द्रशासित प्रदेशे जम्मू कश्मीरे कुपवाड़ा जनपदे नियंत्रण रेखायां मश्शल संभागस्य एकस्मिन् क्षेत्रे अद्य अज्ञातेन जनेन सह भुशुण्डिका प्रहारः जातः। प्रधानमन्त्रिणा नरेन्द्र मोदिना भारतीय क्रीडकेभ्यः शुभकामनाः प्रदत्ताः। आशा च प्रकटिता यत् ते स्वीयोत्कृष्ट प्रदर्शनैः अस्मान् प्रेरयिष्यन्ति। त्रिस्पर्धानां श्रृंखलायाः प्रथम विंशति प्रतिविंशति अन्ताराष्ट्रिय पुरुष क्रिकेट प्रतिस्पर्धायाम् अद्य सायं पल्लेकेले इत्यत्र भारतदेशं श्रीलंकादेशं सम्मुखीकरिष्यति। अनन्तरम् अगस्त मासस्य प्रथम दिवसात् कोलंबो नगरे त्रिस्पर्धानाम् एक दिवसीय श्रृंखला आरप्स्यते इति वार्ताः।